ओम नमो भगवते वासुदेवाय। अथ सप्तपञ्चाशत्तमोऽध्यायः। श्रीशुक उवाच। विज्ञातार्थोऽपि गोविन्दो दग्धानाकर्ण्य पाण्डवान्, कुन्तीं च कुल्यकर्णे सह रामो ययौ कुरून्, भीष्मं कृपं सविदुरं गान्धारीं द्रोणमेव च, तुल्यदुःखौ च सङ्गम्य हा कष्टमिति हो चतुः, लब्ध्वै तदन्तरं राजन् शतधन्वानमूचतुः, अक्रूरकृतवर्माणौ मणिः कस्मान्न गृह्यते, योऽस्मभ्यं सम्प्रतिश्रुत्य कन्यारत्नं विगर्यनः, कृष्णायादान्न सत्राजित् कस्माद्भ्रातरमन्वियात्। एवं भिन्नमतिस्ताभ्यां सत्राजितमसत्तमः, शयानमवधील्लोभात् स पापः क्षीणजीवितः, स्त्रीणां विक्रोशमानानां क्रन्दन्तीनामनाथवत्, हत्वा पशून् सौनिकवन् मणिमादाय जग्मिवान्, सत्यभामा च पितरम् हतम् वीक्ष्य शुचार्पिता, व्यलपत्तातः तातेति हा हतास्मीति मुह्यति, तैलद्रोण्याम् मृतम् प्रास्य जगामगजसः वयम्, कृष्णाय विदितार्थाय तप्ता चख्यौ पितुर्वधम्। तदा कर्ण्येश्वरौ राजन्ननुसृत्य नृलोकताम्, अहो नः परमम् कष्टमित्यस्राक्षौ विलेपतुः, आगत्य भगवान्स्तस्मात् सभार्यः साग्रजः पुरम्, शतधन्वानमारेभे हन्तुम् हर्तुम् मणिम् ततः, सोऽपि कृष्णोद्यमम् ज्ञात्वा भीतः प्राणपरीप्सया, साहाय्ये कृतवर्माण मया च तस चाब्रवीत्, नाहमीश्वरयोः कुर्याम् हेलनम् रामकृष्णयोः, को नु क्षेमाय कल्पेत तयोर्वृजिनमाचरन्, कंसः सहानुगोपीतो यद्वेषात्याजितः श्रिया, जरासन्धः सप्तदश संयुगान् विरथो गतः, प्रत्याख्यातः स चाक्रूरम् पार्ष्णिग्राहमयाचत, सोऽप्याः को विरुध्येत विद्वानीश्वरयोर्बलम्, य इदम् लीलया विश्वम् सृजत्यवति हन्ति च, चेष्टाम् विश्वसृजो यस्य न विदुर्मोहिता जया, यः सप्तहायनः शैलमुत्पाट्यैकेन पाणिना, दधार लीलया बाल उच्छिलीन्द्रमिवार्भकः, नमस्तस्मै भगवते कृष्णायाद्भुतकर्मणे, अनन्तायादिभूताय कूटस्थायात्मने नमः। प्रत्याख्यातः स तेनापि शतधन्वा महामणिम्, तस्मिन्यस्याश्वमारुह्य शतयोजनगम्ययौ, गरुडध्वजमारुह्य रथम् रामजनार्दनौ, अन्वयाताम् महावेगैरश्वैराजन् गुरुद्रुहम्, मिथिलायामुपवने विसृज्य पतितम् हयम्, पद्भ्यामधावत् सन्त्रस्तः कृष्णोऽप्यन्वद्रवदृशा, पदातेर्भगवान्स्तस्य पदातिस्तिग्मनेमिना, चक्रेण शिर उत्कृत्य वाससो व्यचिनोन्मणिम्, अलब्धमणिरागत्य कृष्ण आहाग्रजान्तिकम्, वृथा हतः शतधनुर्मणिस्तत्र न विद्यते, तत आह बलो नूनम् समणिः शतधन्वना, कस्मिंश्चित्पुरुषेऽन्यस्तस्तमन्वेषपुरम् व्रज, अहम् विदेहमिच्छामि द्रष्टुम् प्रियतमम् मम, इत्युक्त्वा मिथिलाम् राजन् विवेशयदुनन्दनः, तम् दृष्ट्वा सहसोत्थाय मैथिलः प्रीतमानसः, अर्हयामास विधिवद् अर्हणीयम् समर्हणैः, उवास तस्याम् कतिचिन्मिथिलायाम् समा विपुः, मानितः प्रीतियुक्तेन जनकेन महात्मना, ततो शिक्षद्गदाम् काले धार्तराष्ट्रः सुयोधनः, केशवो द्वारकामेत्य निधनम् शतधन्वनः, अप्राप्तिम् च मणेः प्राह प्रियायाः प्रियकृद्विभुः, ततः सकारयामास क्रियाबन्धोर्हतस्य वै, साकम् सुहृद्भिर्भगवान् यायाः स्युः साम्परायिकाः, अक्रूरः कृतवर्मा च श्रुत्वा शतधनोर्वधम्, व्यूषतुर्भयवित्रस्तौ द्वारकायाः प्रयोजकौ, अक्रूरे प्रोषिते रिष्टान्यासन् वै द्वारकौकसाम्, शारीरामानसास्तापा मुहुर्दैविकभौतिकाः, इत्यङ्गोपदिशन्त्येके विस्मृत्य प्रागुदाहृतम्, मुनिवासनिवासे किम् घटेतारिष्टदर्शनम्, देवे वर्षति काशीशः स्वफल्कायागताय वै, स्वसुताम् गान्धिनीम् प्रादात् ततो वर्षत्स्म काशिषु, तत्सुतस्तत्प्रभावोऽसा वक्रूरो यत्र यत्र, देवोऽभिवर्षते तत्र नोपतापानमारिकाः, इति वृद्धवतः श्रुत्वा नैतावदिह कारणम्, इति मत्वा समानाय्य प्राह क्रूरं जनार्दनः पूजयित्वा विभाष्यैनं कथयित्वा प्रिया कथाः। विज्ञाताखिलचित्तज्ञः स्मयमान उवाचः ननु दानपते न्यस्तस्त्वय्यास्ते शतधन्वना श्यमन्तको मणिः श्रीमान् विदितः पूर्वमेव नः सत्राजितो नपत्यत्वात् गृह्णीयुर्दुहितुः सुताः दायं निनीयापः पिण्डान् विमुच्यर्णं च शेषितम् तथापि दुर्धरस्त्वन्यैस्त्वय्यास्तां सुव्रते मणिः किन्तु मामग्रजः सम्यङ् न प्रत्येति मणिं प्रति। दर्शयस्व महाभागबन्धूनां शान्तिमावह अव्युच्छिन्नामखास्तेऽद्य वर्तन्ते रुक्मवेदयः। एवं सामभिरालब्धः स्वफल्कतनयो मणिम् आदाय वाससाच्छन्नं ददौ सूर्यसमप्रभम् श्यमन्तकं दर्शयित्वा ज्ञातिभ्यो रजात्मनः विमृज्य मणिना भूयस्तस्मै प्रत्यर्पयत् प्रभुः। यस्त्वेतद्भगवत ईश्वरस्य विष्णोर्वीर्याढ्यं वृजिनहरं सुमङ्गलं च आख्यानं पठति शृणोत्यनुस्मरेद्वा दुष्कीर्तिं दुरितमपोययाति शान्तिम्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्यमन्तकोपाख्याने सप्तपञ्चाशत्तमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।